समन्तं चक्रवालेषु अत्र गच्छन्तु देवता सथमं मुनिराजस सुनन्तु सङ्खमोखतं सके कामे च रूपे गिरिशिखरतटे चन्दलिखे विमाने दीपे रथे च गामे तरुवनागहने गेहमथुं हिघते भुम्मा जायन्तु देवाञ्चलाथला विषमे यखगन्थपनाका तिष्ठन्ता सन्ति केयं मुनिवरवचनं साधवो मे सुनन्तु धम्मश्रवणकालो अयं भदन्ता धम्मश्रवणकालो अयं भदन्ता धम्मश्रवणकालो अयं भदन्ता।